श्री भगवद गीता सार वर्सेस सेलेक्टेड एंड अरेंज्ड बाय श्री रमण महर्षि। अहो भाग्यम पुरा गीतां यो वच्छ्रीपति स्वयं अद्य श्री रमणो भूत्वा गीता सारं ददो सनः पार्थसारथि रूपेण श्रावयित्वा शुभां गिरं पार्थस्यातिहरो देवः कृपामूर्तिः स पातु नः। संजय उवाच तं तथा कृपयाविष्टम् अश्रुपूर्णाकुलेक्षणं विषीदन्तं मिदं वाक्यम् उवाच मधुसूदनः। श्रीभगवानुवाच इदं शरीरं कौन्तेय क्षेत्रम् इत्यभिधीयते येतद्यो वेति तं प्राहुः क्षेत्रज्ञ इति तद्विदः। क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम। अहमात्मा गुडाकेश सर्वभूताशयस्थितः अहमाद्यश्च मध्यं च भूतानाम् अन्त एव च। जातस्य हि ध्रुवो मृत्युर् ध्रुवं जन्म मृतस्य च। तस्मात् अपरिहार्येऽर्थे न त्वं शोचितुमर्हसि। न जयते म्रियते वा कदाचित् नायं भूत्वा भविता वा न भूयः। अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे। अच्चेद्योऽयमदाह्योऽयम् अक्लेद्यो शोष एव च। नित्यः सर्वगतस्तानुरचलोऽयं सनातनः। अविनाशी तु तद्विद्धि येन सर्वमिदं ततं विनाशम् अव्ययस्यास्य न कश्चित्कर्तुमर्हति। नासतो विद्यते भावो नाभावो विद्यते सतः। उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः। यथा सर्वगतं सौक्ष्म्याद् आकाशं नोपलिप्यते सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते। न तद्भासयते सूर्यो न शशाङ्को न पावकः। यद्गत्वा न निवर्तन्ते तद्धाम परमं मम। अव्यक्तोऽक्षर इत्युक्तस्तमाहु परमां गतिं यं प्राप्य न निवर्तन्ते तद्धाम परमं मम। निर्माणमोह जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः द्वन्द्वैर्विमुक्ता सुखदुःखसंज्ञैर्गच्छन्त्यमूढाः। पदमव्ययं तत् यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः। न स सिद्धिम् अवाप्नोति न सुखं न परां गतिं। समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरं विनश्यत्स्वविनश्यन्तं यपश्यति सपश्यति। भक्त्या त्वनन्यया शक्या अहमेवं विधोऽर्जुन ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप। सत्त्वानरूपा सर्वस्य श्रद्धा भवति भारत। श्रद्धामयोऽयं पुरुषो यो यच्छद्ध स एव सः। श्रद्धावां लभते ज्ञानं तत्परा संयतेन्द्रियः। ज्ञानं लब्ध्वा परां शान्तिम्
अचिरेनाधिगच्छति तेषां सततयुक्तानां भजतां प्रीतिपूर्वकं दधामि बुद्धियोगं तं येन माम् उपयान्ति ते तेषामेवानुकम्पार्थम् अहम् अज्ञानजं तमः नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः तेषाम् आदित्यवज्ञानं प्रकाशयति तत्परम् इन्द्रियाणि परान्याहुर् इन्द्रियेभ्यः परं मनः मनसस्तु परा बुद्धिर् यो बुद्धे परतस्तु सः एवं बुद्धे परं बुद्ध्वा संस्तभ्यात्मानमात्मना च हि शत्रुं महाबाहो कामरूपं दुरासदम् यथेधांसि समिद्धोऽग्निर्भस्मसात् कुरुतेऽर्जुन ज्ञानाग्नि सर्वकर्माणि भस्मसात् कुरुते तथा यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः ज्ञानाग्नि दग्धकर्माणं तमाहु पण्डितं बुधाः कामक्रोधवियुक्तानां यतीनां यतचेतसाम् अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनां शनैशनैरुपरमेत् बुद्ध्या धृतिगृहीतया आत्मसंस्तं मनः कृत्वा न किञ्चित् अपि चिन्तयेत् यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् यदस्तदो नियम्येतद् आत्मन्येव वशं नयेत् यतेन्द्रियमनो बुद्धिर्मुनिर्मोक्षपरायणः विगतेच्छा भयक्रोधो यः सदा मुक्त एव सः सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् तेषां ज्ञानी नित्ययुक्ता एकभक्तिर्विशिष्यते प्रियो हि ज्ञानिनोत्यर्थम् अहं स च मम प्रियः बहूनां जन्मनाम् अन्ते ज्ञानवान् मां प्रपद्यते वासुदेवः सर्वमिति स महात्मा स दुर्लभः प्रजहति यदा कामान् सर्वान् पार्थः मनोगतान् आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोचते विहाय कामान्य सर्वान् पुमांश्चरति निःस्पृहः निर्ममो निरहङ्कारः स शान्तिम् अधिगच्छति यस्मान्नो द्विजते लोको लोकान्नो द्विजते च यः हर्षामर्षभयोद्वैग्यैर्मुक्तो यः स च मे प्रियः मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः सर्वारम्भपरित्यागी गुणातीतः स उच्यते यत्स्वात्मरतिरेव स्याद् आत्मतृप्तस्य मानवः आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते नैव तस्याकृते नार्थो नाकृते नेह कश्चन न चास्य सर्वभूतेषु कश्चिद् अर्तव्यपाश्रयः यदृच्चालाभसन्तुष्टो Tvandvatito vimatsaraha sama siddhava siddhocha kritvapi nani badhyate Ishvara sarva bhutanam hridesher junatishtati brahmayan sarva bhutani yantrarudani mayaya tameva sharanam gacha sarva bhavena bharata tatprasadat param shantim stanam prapyasi shashvatam saroyamih sarasya gitayah suvirajate sangrahito bhagavata ramanena maharshina yah shlokan shraddhaya dhite dvichatvarimsha sadhyakan sodhigatya tu gitayas tatparyam sukam richati Om Namo Bhagavate Sri Ramanaya.